നമസ്സർവേഭ്യഃ. അദ്യ പരമലഘുമഞ്ജൂഷായാം ദ്വാദശഃ പാഠഃ, ഏപ്രിൽ മാസസ്യ തൃതീയഃ ദിനാങ്കഃ. അദ്യ വയം സ്ഫോടനിരൂപണം പഠാമഃ. ആദൌ മംഗളം. യേനാക്ഷരസമാമ്നായമധിഗമ്യ മഹേശ്വരാത് കൃത്സ്നം വ്യാകരണം പ്രോക്തം തസ്മൈ പാണിനയേ നമഃ. വാക്യകാരം വരരുചിം ഭാഷ്യകാരം പതഞ്ജലിം പാണിനിം സൂത്രകാരം ച പ്രണതോസ്മി മുനിത്രയം. ശിവന്നത്വാ ഹി നാഗേശേ നാനിന്ദ്യാ പരമാലഘു വൈയാകരണ സിദ്ധാന്ത മഞ്ജൂഷൈഷാ വിരച്യതേ. ഗതവർഗേ വ്യഞ്ജനപ്രകരണം അധീതം. വൃത്തി ത്രേധാ ഭവതി, ശക്തി ലക്ഷണ വ്യഞ്ജന ചേതി. തത്ര വ്യഞ്ജനവൃത്തേ വിഷയ അധീതവന്തഃ. വക്രാദിവൈശിഷ്ട്യജ്ഞാന പ്രതിഭാദ്യുദ്ബുദ്ധ സംസ്കാരവിശേഷ വ്യഞ്ജന ഇതി വ്യഞ്ജനായാഹ സ്വരൂപം. വ്യഞ്ജന കശ്ചിത് സംസ്കാരഃ, സഹ സംസ്കാരഃ കഥം ഉദ്ബുദ്ധ ഭവതി വക്രാദിവൈശിഷ്ട്യജ്ഞാനേന. വക്താ ശ്രോതാ പ്രകരണം അന്യസ്യ സന്നിധിഃ ഇത്യാദീനാം ജ്ഞാനേന സഹ കൃതഃ പ്രതിഭയാ ഉദ്ബുദ്ധ സംസ്കാരവിശേഷ വ്യഞ്ജന ഇത്യുച്യതെ. അസ്യാഹ വൃത്തേഹ മുഖ്യാർത്ഥബാധ നിരപേക്ഷ ബോധജനകത്വം അസ്തി. അർത്ഥാത് പ്രയുക്താനാം പദാനാം യഹ വാച്യഹ അർത്ഥഃ സഹ യുജ്യതേവ തത്ര ന കാപ്യനുപപത്തിഃ. ഗതോസ്തമർക്കഃ ഇത്യുക്തേ സൂര്യഃ അസ്തംഗതഃ ഇതി ശക്യാർത്ഥഃ, തസ്യ ബാധഃ നാസ്തി. തേന സഹ അന്യേ കേചന വിശിഷ്ടാഃ അർത്ഥാഃ ബുദ്ധ്യന്തെ, തേഷാം ബോധഃ വ്യഞ്ജനാവൃത്യാ ഭവതി ഇതി സിദ്ധാന്തഃ. മുഖ്യാർത്ഥ സംബന്ധ അസംബന്ധ സാധാരണം. ലക്ഷണാവൃത്യാം ലക്ഷ്യാർത്ഥഃ സർവദാ ശക്യാർത്ഥേന സംബദ്ധഃ ഏവ ഭവതി. കിന്തു വ്യഞ്ജനാവൃത്യാം അസംബദ്ധസ്യാപ്യർത്ഥസ്യ ഭാനം ഭവതി. പ്രസിദ്ധ അപ്രസിദ്ധാർത്ഥ വിഷയകം. വ്യഞ്ജനായാ ബോധ്യമാനഃ അർത്ഥഃ ക്വചിത് പ്രസിദ്ധഃ ക്വചിച്ച അപ്രസിദ്ധഃ. ഇയഞ്ച വ്യഞ്ജന ന കേവലം പദനിഷ്ഠ അഥവാ വാക്യനിഷ്ഠ അപിതു ശബ്ദേ അർത്ഥേ പദേ പദൈകദേശേ വർണരചനായാം ചേഷ്ടാദിഷു സർവത്ര ഭവതി. അതഃ അവാച്യ അപി വ്യഞ്ജന ഭവതി. അർത്ഥാത് വാച്യം വിനാ അപി വ്യംഗ്യാർത്ഥസ്യ പ്രതീതിഃ കദാചിത് ഭവതി. വക്രാദി വൈശിഷ്ട്യജ്ഞാനം വ്യംഗ്യവിശേഷബോധേ സഹകാരി. വക്തുഃ ജ്ഞാനേ സതി കശ്ചന വിശേഷാർത്ഥഃ കദാചിത് സ്ഫുരതി. കിന്തു സർവത്ര ഏതദപേക്ഷിതമിതി നാസ്തി. കദാചിത് വക്തൃജ്ഞാനം വിനാപി ശ്രോതൃജ്ഞാനം വിനാപി വ്യംഗ്യാർത്ഥസ്യ ഭാനം ഭവതി. ജ്ഞാനേ സതി വിശിഷ്ടസ്യ അർത്ഥസ്യ ഭാനം ഭവിതും അർഹതി കേഷുചിത് പ്രസംഗേഷു. പ്രകരണം ആശ്രിത്യ നിർദ്ധാരണീയഃ. താർക്കികമതേ വ്യഞ്ജന ലക്ഷണയാ ഗതാർത്ഥാ ഇതി വദന്തി. അർത്ഥാത് എത്ര എത്ര വ്യംഗ്യാർത്ഥസ്യ ഭാനം ഭവതി തത്ര സർവത്ര ലക്ഷണയാ ഏവ നിർവാഹഃ കർത്തും ശക്യതേ. അതഃ പൃഥക് വൃത്തേഹ കൽപ്പന നാവശ്യകീ ഇതി തേഷാം മതം. കിന്തു വൈയാകരണമതേ വ്യഞ്ജന വ്യഞ്ജനായാഹ സ്വീകാര്യഃ സ്വീകാരഃ അനിവാര്യഃ. യതോ ഹി അസ്മാകം പരമസിദ്ധാന്തഃ സ്ഫോടഃ സോപി വ്യംഗ്യ ഏവ നതു സാക്ഷാദ് വാച്യഃ. നിപാതാദിഷു അപി അസ്മാഭിഃ ദ്യോതകത്വം അംഗീക്രിയതേ യച്ച സ്വസമഭിവ്യാഹൃത പദനിഷ്ഠ ശക്തി വ്യഞ്ജകത്വം ഇതി വർണ്യതേ. കിഞ്ച ലക്ഷണയാ വ്യഞ്ജനായാഹ ഗതാർത്ഥത്വം ന സംഭവതി ഉക്തകാരണൈഃ. മുഖ്യാർത്ഥബാധ നാസ്തി മുഖ്യാർത്ഥേന സംബന്ധഃ അപി നാപേക്ഷ്യതേ ഇത്യതഃ ലക്ഷണയാ വ്യഞ്ജനായാഹ ഗതാർത്ഥത്വം അംഗീകർത്തും ന ശക്യതേ. പൃഥക് വൃത്തിത്വേന വ്യഞ്ജന അംഗീകാര്യാ ഏവ ഇതി വൈയാകരണ സിദ്ധാന്തഃ ദൃഷ്ടഃ. തതഃ അഗ്രിമം പ്രകരണം ഗ്രന്ഥേ സ്ഫോടനിരൂപണം. ഗ്രന്ഥസ്യ ആദൌ ഏവ വൃത്തേഹ പ്രാക് സ്ഫോടസ്യ അഷ്ടവിധതാം പ്രതിപാദ്യ തസ്യ ശബ്ദസ്യ പ്രാമാണ്യമസ്തി. അർത്ഥാത് ജ്ഞാനേ കരണത്വമസ്തി. ശാബ്ദബോധഃ കഥം ഭവതി ഇതി നിർവർണ്യ വൃത്തിഗ്രഹഃ വൃത്തിജ്ഞാനം വൃത്തിവിശിഷ്ടജ്ഞാനം ശാബ്ദബോധേ ഹേതുഃ. തർഹി കാ നാമ വൃത്തിഃ ഇതി ചേത് ശക്തിഃ ലക്ഷണാ വ്യഞ്ജനാ ഇത്യേവം തിസ്രഃ വൃത്തയഃ ഭവന്തി. इति प्रतिज्ञाय तासां वृत्तीनां स्वरूपमपि निर्वर्ण्य अधुना स्फोटो नाम कः? स्फोटः नाम शब्दः इत्युच्यते, वृत्त्याश्रयः शब्दः. शब्दस्य किं स्वरूपम् इति विचारयितुं प्रवर्तते. यतोहि अस्मन्मते शब्दः एव ब्रह्मस्वरूपम्. यदि यत् वेदान्तिभिः परब्रह्म इति उच्यते, तत्सदृशः एव शब्दब्रह्म अस्माभिः अङ्गीक्रियते. तत्कारणत्वेन च शब्दस्य नित्यत्वम् अपि अभ्युपगम्यते, यच्च अन्यैः दार्शनिकैः नाङ्गीक्रियते. तार्किकैः शब्दस्य अनित्यता एव प्रतिपाद्यते, न तु नित्यता. अत एव शब्दस्य स्वरूपं किम् इति विमृष्टुम् इदं प्रकरणम् आरभते. ननु कोऽयं वृत्त्याश्रयशब्दः? वृत्तिः यत्र भवति, शक्तिः, लक्षणा, व्यञ्जना वा, तत्र तदाश्रयत्वेन कश्चित् शब्दः भवति, किञ्च तेन बोध्यः कश्चिदर्थः. यथा शक्तं पदं शक्यः अर्थः, लाक्षणिकं पदं लक्ष्यः अर्थः, व्यञ्जकं पदं व्यङ्ग्यः अर्थः इत्येवं भवति. अतः वृत्त्याश्रयः शब्दः कः नाम किं स्वरूपः इति प्रश्नः. वर्णाः प्रत्येकम् इति चेत् न. वर्णाः अकार ककारादयः प्रत्येकम् अर्थं बोधयन्ति इति चेत् न. द्वितीयादिवर्णोच्चारणवैयर्थ्यापत्तेः. यदि एकः वर्णः एव अर्थं बोधयति इत्यङ्गीक्रियते, तर्हि रामः इति वक्तव्ये रेफमात्रस्य उच्चारणेन अर्थस्य प्रतीतौ आकारमकारादीनाम् उच्चारणं व्यर्थं स्यात्. अतः वर्णः वाचकः इति स्वीकर्तुं न शक्यते, नापि वर्णसङ्घातः. अस्तु, तर्हि रेफ आकारमकार अकाराणां समूहः, एवञ्च घटः इति वक्तव्ये घकार अकार टकार अकार विसर्गाणां सङ्घातः नाम समूहः घटपदार्थस्य वाचकः इति वदामः इति चेत् तदपि न शक्यते. उच्चरितप्रध्वंसित्वेन यौगपद्य असम्भवात्. सङ्घातः अथवा समूहः कुत्र भवति? यत्र एकस्मिन् काले एकस्मिन् देशे बहूनां व्यक्तीनां स्थितिः सत्ता भवति, तत्रैव सङ्घातः. अत्र तु यौगपद्यं नास्ति, अर्थात् एकः वर्णः घटः घकारः उच्चार्यते, द्वितीयस्य अकारस्य उच्चारणवेलायां घकारः नष्टः, अकारः उच्चरितः, तृतीयस्य टकारस्य उच्चारणवेलायां घकारोऽपि नष्टः अकारोऽपि नष्टः. तर्हि कुत्र अस्ति सङ्घातः? उच्चरितप्रध्वंसित्वेन यौगपद्य असम्भवात्. अभिव्यक्तेः उत्पत्तेर्वा क्षणस्थायित्वात्. ये शब्द अनित्यत्ववादिनः तेषां मते वर्णानाम् उत्पत्तिः, अर्थात् वर्णाः उत्पद्यन्ते नश्यन्ति, पुनरुत्पद्यन्ते नश्यन्ति इति. अन्येषां मते वर्णाः नित्या इति चेत् अभिव्यज्यन्ते, सर्वदा भवत्येव शब्दः, किन्तु वाचा अभिव्यक्तिः भवति इति. उभयथापि अभिव्यक्तेः उत्पत्तेर्वा क्षणस्थायित्वात्. सो इट्स् वेरि वेरि मोमेण्टरि. सो क्षणात्मककालस्य प्रत्यक्ष अयोग्यत्वेन सतकालः प्रत्यक्षतया अनुभवितुं न शक्यते इति. तदवच्छिन्नवर्णस्यापि अप्रत्यक्षत्वात्, अतः पदस्य प्रत्यक्षत्वमेव न भवति. वर्णाः प्रत्येकम् अप्रत्यक्षाः. उच्चारण अधिकरणकालोत्तरकालवृत्तिध्वंसप्रतियोगित्वम् उच्चरितप्रध्वंसित्वम्. अत्र उक्तम् उच्चरितप्रध्वंसित्वेन योगपद्य असम्भवात्. कः अर्थः उच्चरितप्रध्वंसित्वस्य इति चेत्, उच्चारण अधिकरणकालः, उच्चारणस्य अधिकरणत्वेन कश्चित् कालः विद्यते, तदुत्तरकाले यः ध्वंसः तत्प्रतियोगित्वम् नाम यस्मिन् क्षणे उच्चरितं तदग्रिमक्षणे ध्वंस एव, क्षणमात्रमपि न तिष्ठन्ति वर्णाः इति स्थितिः. अतः उच्चारण अधिकरणकालोत्तरकालवृत्तिध्वंसप्रतियोगित्वम् उच्चरितप्रध्वंसित्वम् इकोयणसि इत्यादौ तस्मिन् इति परिभाषोपस्कृतवाक्यार्थे अयं पूर्वः अयं परः इति नष्टस्य प्रत्यक्षविषय इदं शब्देन पौर्वापर्यव्यवहार अयोगाच्च. इकोयणचि इत्यत्र किम् उच्यते? तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषा उपतिष्ठते सप्तम्याः श्रवणेन, तथा च अजव्यवहितपूर्वस्य इकः, अर्थात् अयम् अच् परः, अयञ्च इक् पूर्वः, अस्माद् अचः पूर्वस्य इकः स्थाने यणादेशः इत्यादि उच्यते. तत्र यदि एवं परामर्शवेलायां पूर्वः इग्वर्णः अपि नास्ति, परः अज्वर्णः अपि नास्ति, तर्हि अयं पूर्वः अयं परः इत्यादि व्यवहारः न युज्यते एव, एवञ्च एतत् स्वीकर्तुं न शक्यते इति. शब्दस्यैव वर्णसङ्घातं पदम् इत्युक्ते तादृशस्य पदस्यैव अप्रत्यक्षत्वात् प्रत्यक्षतया ज्ञातुम् अशक्यत्वात् अस्य अङ्गीकारः कर्तुम् अशक्यः इति नागेशस्य मतम्. यत्तु तार्किकाः, तर्हि तार्किकाः किं वदन्ति अस्य इति चेत्, वर्णानाम् अनित्यत्वे अपि उत्तरोत्तरवर्णे पूर्वपूर्ववर्णवत्वम् अव्यवहितोत्तरत्वसम्बन्धेन संस्कारवशात् गृह्यते इति पदस्य प्रत्यक्षत्वात् छाव्यबोधः. यद्वा पूर्वपूर्णवर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्यक्षपर्यन्तं जायमाना एव सन्तीति न परप्रत्यक्ष अनुपपत्तिः. यद्वा पूर्वपूर्णवर्ण अनुभवजन्यसंस्कारसद्धीचीनचरमवर्णानुभवतः शाब्दबोधः इत्याहुः. त्रेधा समाधानम् उच्यते तार्किकैः. वर्णसङ्घातः प्रत्यक्षः न भवति, तेन कारणेन शाब्दबोधस्य सम्भवः नास्ति इति या आपत्तिः प्रदर्शिता, तस्य उत्तरत्वेन त्रेधा समाधानं प्रस्तूयते तार्किकैः. प्रथममस्ति वर्णानाम् अनित्यत्वे अपि. सत्यं वर्णाः नित्याः, अर्थात् उच्चरितप्रध्वंसिनः. उच्चारण अधिकरणः यः कालः तत्समनन्तरं तदुत्तरकाले ध्वंसः एव. तथापि वर्णानाम् अनित्यत्वे अपि उत्तरोत्तरवर्णे पूर्वपूर्णवर्णवत्वम् अव्यवहित उत्तरत्वसम्बन्धेन संस्कारवशाद् गृह्यते. उत्तरोत्तरवर्णे अर्थात् घकारः उच्चरितः नष्टः. इदानीम् अकारः उच्चार्यते, घकारः नास्ति, तथापि घकारवत्त्वम् अकारे अङ्गीक्रियते. केन सम्बन्धेन? अव्यवहित उत्तरत्वसम्बन्धेन, अर्थात् अव्यवहितपूर्वत्वसम्बन्धेन घकारः अकारे विद्यते. यद्यपि घकारः नष्टः, तथापि अव्यवहितोत्तरवर्णे अर्थात् अकारे घकारस्य सत्ता अङ्गीक्रियते संस्कारवशात्. अर्थात् घकारवत्त्वम् अकारे अङ्गीक्रियते अव्यवहित उत्तरत्वसम्बन्धेन संस्कारकारणेन. घकारस्य उच्चारणे यः संस्कारः उत्पन्नः, तद्वशात् अकारः घकारवान्. पुनश्च यः टकारः तृतीयः, सः अकारवान्. अकारश्च घकारवान् इत्यतः घकार अकारवान् टकारः. चतुर्थः वर्णः पुनश्च अकारः, घकार अकार टकारवान् सः अकारः. अन्ते तु विसर्गः. तस्मिन् सर्वेषां वर्णानां सत्ता अङ्गीक्रियते. तेन पदस्य प्रत्यक्षत्वात् उत्तरोत्तरवर्णे पूर्वपूर्णवर्णवत्त्वम् पूर्वपूर्ववर्णाः उत्तरवर्णे सन्ति इति तेषां सत्ता अव्यवहित उत्तरत्वसम्बन्धेन संस्कारवशात् गृह्यते इति पदस्य प्रत्यक्षत्वात् शब्दबोधः. एवञ्च विसर्गस्य उच्चारणसमये सर्वेषां वर्णानां विसर्गेणैव भानं भवति, तेन च शब्दबोधो भवति, तत्र पदं प्रत्यक्षम् इति एकं मतम्. द्वितीयं वदन्ति, यद्वा पूर्वपूर्णवर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्यक्षपर्यन्तं जायमाना एव सन्तीति. न परप्रत्यक्ष अनुपपत्तिः. अथवा द्वितीयं समाधानमुच्यते, शब्दजशब्दन्यायः एषः तरङ्गेषु उपयुज्यते. वीचीज तरङ्गन्यायः इति. So it is like the transmission of waves. Okay. So even in the modern wave theory, it is not a, even when we talk about vibrations and all. So when vibrations spread through the air or when waves spread through the water, it is like one wave generates another wave, which generates another wave, which generates another wave and so on. अतः सः वीचिज तरङ्गन्यायः इत्युच्यते. सो वीचि, इवन् दो इट् इस् नाट् मूविङ्ग् इट् सेल्फ, इट् जनरेट्स् वेव्स् फर्दर् आन् एण्ड् देर् फोर् द वेव् अपियर्स् टु बि मूविङ्ग् even though the particles are there. So it is the movement of the wave, which is a transmission or generation of waves. अतः एकस्मात् तरङ्गात् अन्यः तरङ्गः जायते, तस्मात् अन्यः तरङ्गः, तस्मात् अन्यः तरङ्गः इति तत्समानाकृत्य शब्दजशब्दन्यायेन पूर्वपूर्ववर्णजाः शब्दाः, अर्थात् एकः घकारः अन्यं घकारं जनयति, पुनश्च अन्यं घकारं जनयति इत्येवं पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्ण प्रत्यक्षपर्यन्तम्, यावत्पर्यन्तम् अन्तिमः वर्णः उच्चार्यते तावत्पर्यन्तं पूर्वपूर्ववर्णैः पुनः पुनः तेषाम् उत्पत्तिः भवति इत्यतः जायमाना एव सन्ति इति न परप्रत्यक्ष अनुपपत्तिः. अर्थात् चरमवर्णप्रत्यक्षवेलायां यद्यपि उच्चरितः प्रथमः घकारः नष्टः, तथापि तज्जन्यजन्यजन्यजन्यजन्यः कश्चित् घकारः भवति इत्यतः पदं प्रत्यक्षं भवति. यद्वा पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्यक्षपर्यन्तं जायमाना एव सन्तीति न पदप्रत्यक्ष अनुपपत्तिः इति द्वितीयं समाधानम् उच्यते तार्किकैः. So yes, so the comment is, then in that case we are not hearing the original sound but its duplicate, isn't it, since the charma varna may or may not be very close to the original. Yes, tatha tatra atra uchchamaneshu sarvesha samadhaneshu apattihi astyeva. It doesn't it's not very convincing, but I mean they are trying different things. Yes, yadva athava, so one more, they say purva purva varna anubhava janya samskara सद्रीचीन चरमवर्ण अनुभवतः शाब्दबोधः इत्याहुः. सो पूर्वपूर्ववर्ण अनुभवः, यदा घकारः उच्चार्यते घकारस्य श्रवणं भवति तदा कश्चित् संस्कारः भवति, अनुभवः संस्काररूपेण भवति, पुनः अकारस्य कश्चित् संस्कारः, तकारस्य कश्चित् संस्कारः, पुनः तदुत्तर अकारस्य कश्चित् संस्कारः, एतैः संस्कारैः सहितस्य चरमवर्ण अनुभवतः, अन्ते यदा अन्तिमः वर्णः श्रूयते तदा तत्र पूर्वेषां सर्वेषामपि वर्णानां संस्कारः भवति. चरमः वर्णः अनुभूयते तस्मिन् क्षणे पूर्वेषां सर्वेषामपि वर्णानां संस्कारः अस्ति, ततः शाब्दबोधः. एवं पूर्वपूर्ववर्ण अनुभवजन्य संस्कार सद्धीचीन, सद्धीचीन नाम सहित इत्यर्थः, तेन सहितस्य चरमवर्णस्य अनुभवतः शाब्दबोधः इत्याहुः. तार्किकाः आहुः एवं वदन्ति. किं प्रथमतः उक्तवन्तः उत्तरोत्तरवर्णे पूर्वपूर्ववर्णवत्वम् अव्यवहित उत्तरत्वसम्बन्धेन गृह्यते इति एकं समाधानम्, अथवा शब्दजशब्दन्यायेन चरमवर्ण उत्पत्तिपर्यन्तं पूर्वपूर्ववर्णाः जायमाना एव भवन्ति, अन्तिमक्षणे सर्वेषां प्रत्यक्षत्वं भवति इति द्वितीयम्, अथवा पूर्वपूर्ववर्णानां यः अनुभवः तेन सहितस्य अन्तिमवर्णस्य तज्जन्यः यः संस्कारः तत्सहितस्य चरमवर्णस्य अनुभवेन शाब्दबोधः भवति इति त्रेधा समादधति तार्किकाः. तन्न एतत् किमपि न युक्तम् इति निराक्रियते नागेशेन. किमर्थम् इति चेत् आद्ये ओके अत्र प्रश्नः, हौ इस् द थर्ड् वन् डिफरेण्ट् फ्रम् द फस्ट् वन्. प्रथमतः प्रथम समाधाने वर्णस्यैव सत्ता उच्यते, अर्थात् पूर्ववर्णः एव द्वितीयवर्णे अस्ति, घकारः अकारे विद्यते अव्यवहितोत्तरत्वसम्बन्धेन, पुनश्च घकार अकारौ टकारे विद्येते इत्येवम्. अत्र तु वर्णस्य सत्ता न नोच्यते, अपि तु वर्णेन वर्णस्य अनुभवेन जन्यः संस्कारः, बुद्धौ यः संस्कारः तस्यैव सत्ता प्रतिपाद्यते. आद्ये अयं पूर्वः अयं परः इति अभिलाप असम्भवेन अव्यवहित उत्तरत्वसम्बन्ध अयोगात्, आद्ये समाधाने उत्तरोत्तरवर्णे पूर्वपूर्ववर्णवत्त्वं नाम घकारवत्त्वं अकारे अकारवत्त्वं घकार अकारवत्त्वं टकारे इत्येवमुच्यते तच्च कथमुच्यते अव्यवहित उत्तरत्वसम्बन्धेन कथं केन सम्बन्धेन वस्तुतः सः वर्णः नास्ति उच्चरितः विनष्टः तर्हि कथमुच्यते सम्बन्धः कश्चित् कल्प्यते अव्यवहित उत्तरत्वसम्बन्धः इति किन्तु तस्य सम्बन्धस्य अयोगात् आद्ये अयं पूर्वः अयं परः इति अभिलाप असम्भवेन अव्यवहित उत्तरत्वसम्बन्ध अयोगात् यदा द्वयोः युगपत् सत्ता भवति तत्र अयं पूर्वः अयं परः इति निर्देष्टुं शक्यते सो वेन् देर् आर् टु थिङ्ग्स् विच् आर् प्रेसेण्ट् एट् द सेम् टैम् देन् यू केन् डिसैड् अयं पूर्वः अयं परः इति अत्र तु न भवत्येव सो द फस्ट् लेटर् इस् देर् बै द टैम् द सेकेण्ड् लेटर् कम्स् द फस्ट् लेटर् इस् आल्रेडि गान् सः पूर्वः इति कथम् उच्यते आद्ये अयं पूर्वः अयं परः इति अभिलाप असम्भवेन अव्यवहित उत्तरत्वसम्बन्ध अयोगात् नष्टविद्यमानयोः अव्यवहित उत्तरत्वसम्बन्धस्य वक्तुम् अशक्यत्वाच्च किञ्च अव्यवहित उत्तरत्वं कुत्र भवति द्वयोः सत्तायां भवति नष्टविद्यमानयोः एकः नष्टः अपरः विद्यमानः तत्र अव्यवहित उत्तरत्वरूपः सम्बन्धः कथं सम्बन्धः एव कथं कश्चिद् नष्टः कश्चिद् विद्यते विद्यमानयोरेव द्वयोः सम्बन्धः कल्पयितुं शक्यः एकः नष्टः अपरः विद्यमानः इति चेत् सम्बन्धः वक्तुम् अशक्यः नष्टविद्यमानयोः अव्यवहितोत्तरत्वसम्बन्धस्य वक्तुम् अशक्यत्वाच्च अतः प्रथमं समाधानं न युज्यते द्वितीये शब्दजशब्दन्यायेन पदप्रत्यक्ष उपपादने अपि पदस्य प्रत्यक्षत्वम् उपपादयितुं शक्यम् अर्थात् चरमवर्णप्रत्यक्षपर्यन्तं पूर्वपूर्ववर्णाः पूर्वपूर्ववर्णैः जायमानाः वर्णाः भवन्ति इत्यतः सम्पूर्णस्य पदस्य प्रत्यक्षत्वं शक्यम् शब्दजशब्दन्यायेन पदप्रत्यक्ष उपपादने अपि पदस्य अविद्यमानत्वेन तथापि अन्तिमवर्णः यदा उच्चार्यते तत्समनन्तरं सम्पूर्णं पदं नष्टमेव पदस्य अविद्यमानत्वेन तत्र शक्त्याश्रयत्वस्य ग्रह अनुपपत्तेः यदि पदं विद्यते तर्ह्येव अयं शक्त्याश्रयः इति वक्तुं शक्यः अत्र पदस्य प्रत्यक्षत्वं साधितं किन्तु पदस्य विद्यमानत्वं तु न साधितं पदं तु नष्टमेव पदस्य अविद्यमानत्वेन तत्र अविद्यमाने पदे शक्त्याश्रयत्वस्य ग्रह अनुपपत्तेः अयं शक्तेराश्रयः इति वक्तुं न शक्यते अविद्यमाने आश्रयत्व अङ्गीकारे चिन्ता नास्ति यद् न विद्यते तत्रापि आश्रयत्वम् अङ्गीकुर्मः इति यदि वदन्ति नष्टो घटो जलवान् इत्याद्यापत्तेश्च नष्टः घटः जलवान् इति प्रयोगः स्यात् किमर्थं यद्यपि घटः यः घटः विद्यते तत्रैव स एव जलस्य आश्रयः भवितुमर्हति अतः घटो जलवान् इति प्रयोगः भवति अविद्यमानः घटः कथं वा जलस्य आश्रयः स्यात् यदि अविद्यमाने पदे शक्तेः आश्रयत्वम् अङ्गीक्रियते तर्हि समानन्यायेन अविद्यमाने घटे जलाश्रयत्वम् अङ्गीकर्तव्यम् तथा च नष्टो घटो जलवान् इति स्यात् तत्तु न इष्यते न केनापि इष्यते यतोहि न कस्याप्यनुभवसिद्धम् तादृशः प्रयोगः न भवत्येव अतः अविद्यमाने पदे शक्त्याश्रयत्वस्य अङ्गीकारः न शक्यते इति द्वितीयं समाधानम् अपि न युज्यते तृतीये तृतीयः समुक्तः पूर्वपूर्ववर्णस्य अनुभवेन जन्यः यः संस्कारः तत्सहितस्य अन्तिमवर्णस्य चरमः नाम अन्तिमः अन्तिमवर्णस्य अनुभवेन शाब्दबोधः भवति इत्युक्तं तृतीये येन क्रमेण अनुभवः तेनैव क्रमेण तत्संस्कारस्थितिः इत्यत्र विनिगमकाभावात् अनुभवे क्रमः भवति सो केनचित् क्रमेण अनुभूयते किन्तु संस्कारः क्रमरहितः सो वेन् इट् एण्टर्स् द मैण्ड् द संस्कार इन् द मैण्ड् इस् नाट् इन् द आर्डर् द right? So if we want to remember what happened in our childhood, do we go through everything that happened in between, in the intervening time? So something, the samskara of childhood, it can be recollect directly now without having to go through all the intervening samskaras, right? So samskare kramaha nasti. Yakopi samskaraha, yasminapi kale, punaha udbuddhaha bhavitum arhati. Samskare kramaha nasti. Anubhave eva kramaha. So it is only the anubhava which has an order. You experience things in a particular order, but you do not recollect them in the same order. You can recollect anything at any time. Samskare kramaha nasti. Samskarasya kramarahityam sarvanubhava siddham. Tatha sati, yena kramena anubhavaha, tenaiva kramena tatsamskara sthitihi ityatra vinigamaka bhavat. Sarorasaha. Nadidinaha ityadau viparita samskara udbodhena saraha iti ekam padamasti tatra katham bhavati idanim tritiyaha pakshaha yadi angikriyate tarhi sakara akara repha akaranam samskarena sahitasya visargasya anubhavena shabdabodhaha sarashabdasya shabdabodhaha rasaha ityasti tatra katham shabdabodhaha Teyeva varanaha, ye sakara akara repha akara visargaha, teyeva repha akara sakara akara visargaha, atrapi santi. Ataha anubhave kramaha bhavati, kintu yada samskaraha kriyate, tasyeva sakarasya akarasya rephasya cha samskarena sahitaha antimaha visargaha. Tarhi saraha iti uchcharite, rasa shabdarthasya pratitihi syat iti apattihi. Understood? Because samskara does not have an order, what you have is just a set of samskaras. Say if there are three letters, say you have sakara, akara and repha, or even considering the other akara as bhinna, you have sakara, two akaras and repha, the samskara of sakara, repha and two akaras. So even in rasaha, you have the samskara of sakara, repha and two akaras. Since samskara is not ordered, in both cases, when you hear the final visarga, that visarga is accompanied by a similar samskara, which means that the meanings could be interchanged. So how do we say that saraha will give this particular meaning? Saraha ityasya asmin arthe shaktihi, rasaha ityasya anyasmin arthe shaktihi, iti katham ubhayatra samskaraha samanaha, tasya kshanasya anubhavopi samanaha kila iti. Tritiye yena kramena anubhavaha, tenaiva kramena tat samskara sthitihi ityatra vinigamaka bhavat sarorasaha nadidinaha atrapi tathaiva nakaraha akaraha dakaraha ikaraha evam dakaraha ikaraha nakaraha akaraha ityevam samana varanaha yatra santi ityadau viparita samskara udbodhena yena kramena ishyate tad viparitataya api samskara udbodhena pratyekam Anyartha pratyaya patehe, sarashabde ucharite, rasapadarthasya pratiti hisyat, nadi ityucharite, dina ityasya pratiti hisyat, iti anyartha pratyaya patehe. Ataha tritiyam api samadhanam angi kartum na shakyate. Anyacha vadati, utpatti vinashavad varana samudaya rupa padasya. Idam padam asti, padam kim? Varna samudaya rupam padam. Varna samudaya ha kidrishaha utpatti vinashavat. Arthat, tarkikanam mate natu asman mate. Tarkikanam mate varnaha utpatti vinashavantaha. Anityaha varnaha utpadyante vinashyanti. Tadrisha varna samudaya ha padam. Tasya manushyadivad bhede. Arthat, yat padam idanim. Idanim maya ghataha iti padam uchariyate. Uchariyate nashyati. Punaha Anyena kena chite ghataha iti uchariyate, sopi nashyati. Tarhi ubhayam samanam va bhinnam va iti chet, bhinnam ityeva vaktavyam, manushyadivad bhede. Vayam manushyaha utpadyante nashyanti. Ekaha manushyaha aparasman manushyan bhinnaha iti to angi kriyate. Ataha, utpatti vinashavad varana samudaya rupa parasya, manushyadivad bhede. Bhashya virodha pattehe, bhashyena virodha. Kim bhashyam ekaha indra shabdaha kratushate pradurbhutaha yugapat sarvayage shvangam bhavati iti bhashya virodha pattehe कदाचित् भाष्यकारेण एवम् उच्यते बहुषु क्रतुषु इन्द्रशब्दः प्रादुर्भूतः इन्द्राय स्वाहा इत्येवं क्रमेण एकः इन्द्रशब्दः क्रतुषते प्रादुर्भूतः प्रादुर्भूतः नाम अभिव्यक्तः सर्वत्र यदा ते इन्द्रशब्दम् उच्चारयन्ति तदा युगपत् समानकाले सर्वयागेषु अङ्गं भवति सर्वेषु यागेषु तदङ्गं भवति इति भाष्यकारेण उच्यते एकः इन्द्रशब्दः इति यदि क्रतुषते इन्द्रशब्दः उच्चार्यते नश्यति च तर्हि तस्य एकत्वं कथम् शतम् एव इन्द्रशब्दाः किल तस्मिन् तस्मिन् यज्ञे यः इन्द्रशब्दः उच्चारितः सः तस्मिन् अङ्गे तस्मिन् यज्ञे अङ्गं भवति स एकः इन्द्रशब्दः इति कथम् इति प्रश्नः इति भाष्यविरोधापत्तेः एवञ्च यदि वर्णानाम् उत्पत्तिविनाशवत्त्वम् नाम अनित्यत्वम् अङ्गीक्रियते तर्हि भाष्यविरोधः भवति प्रादुर्भूतः इति यद्यपि भाष्यकारेण उपयुक्तम् प्रादुर्भूतः इति पदम् जातः इत्यर्थे उत्पन्नः इति किन्तु सः अर्थः न इति प्रतिपादयितुमेव प्रादुर्भूतः नाम अभिव्यक्तः अस्तु तर्हि तार्किकमतं निराकृतं तैः उक्ता वर्णः पदं वर्णः वाचकः इति मतमपि निराकृतं वर्णसङ्घातः वाचकम् इत्यपि निराकृतं ननु कस्तर्हि वृत्त्याश्रयशब्दः अस्तु भोः तर्हि भवतां मतेन शब्दः कः तस्य स्वरूपं कीदृशम् इति चेत् सः स्फोटात्मकः इति गृहाण स्फोटः एव शब्दः स एव वाचकः ननु कोऽयं स्फोटः अस्तु स्फोटः नाम कः उच्यते चतुर्विधा हि वागस्ति परा पश्यन्ति मध्यमा वैखरी च वाक् चतुर्विधा भवति परा पश्यन्ति मध्यमा वैखरी तत्र मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्थ शब्दब्रह्मरूपा स्पन्दशून्या बिन्दुरूपिणी परा वागुच्यते अत्र प्रत्येकं चतुर्णामपि वाचां स्वरूपं निर्वर्णयति नागेशः परा वाक् कीदृशी मूलाधारस्थपवनसंस्कारीभूता मूलाधारचक्रे षट्चक्राणि सन्ति देहे तत्र मूलाधारचक्रे यः पवनः वायुः तेन संस्कृता मूलाधारस्थ मूलाधारचक्रे एव स्थिता शब्दब्रह्मरूपा शब्दब्रह्म परतत्त्वं यदस्ति तत्स्वरूपिणी स्पन्दशून्या स्पन्दः नाम मूव्मेण्ट् तद्रहिता बिन्दुरूपिणी बिन्दुरूपेण स्थिता अत्यन्तं सूक्ष्मा इत्यर्थः परा वाग् उच्यते सो सैव परा वाक् अत्र अधः उच्यते षण्णवत्यङ्गुलो देहायामः तत्र अष्टचत्वारिंशत्तममधस्तादुपरि च परित्यज्य मध्ये मूलाधारः सो मूलाधारचक्र इस् द चक्र एट् द बेस् सो वेर् डस् इट् एक्सिस्ट् मध्ये देहमध्ये इत्युच्यते देहमध्यं प्रचक्षते षण्णवत्यङ्गुलः देहायामः द एक्स्टेण्ट् आफ् द देह इस् कन्सिडर्ड् टु बी षण्णवति अङ्गुल सो 96 अङ्गुलास् तत्र अष्टचत्वारिंशत्तममधस्तादुपरि च परित्यज्य सो लीविङ्ग् 48 अङ्गुलास् बिलो एण्ड् 48 अङ्गुलास् अबौ सो इन् दट् मिड् पायिण्ट् इस् द मूलाधारचक्र ओके सो देर् आर् 6 चक्रास् विच् आर् फेमस् इन् द नो द तन्त्रशास्त्र एण्ड् आल् दट् सो तत्र मूलाधारचक्रे मूलाधारस्थिता शब्दब्रह्मस्वरूपा स्पन्दशून्या बिन्दुरूपिणी परा वाग् उच्यते नाभिपर्यन्तम् आगच्छता तेन वायुना यः पवनः आदौ मूलाधारचक्रे उद्भवति ततः उपरि नाभिपर्यन्तम् आगच्छता तेन नाभिं प्रति आगतेन तेन पवनेन अभिव्यक्ता मनोगोचरीभूता पश्यन्ती वागुच्यते सो परावाक् इस् बियाण्ड् पर्सेप्शन् इट् इस् द कम्प्लीट् ब्रह्मस्वरूप ओके बिन्दुरूपिणी ततः उपरि यदा वायुः आगच्छति नाभिस्थले मनोगोचरी भूता पश्यन्ती वाक् उच्यते सो देर् वी हेव् द सेकेण्ड् कैण्ड् आफ् वाक् विच् इस् काल्ड् पश्यन्ती विच् केन् बि पर्सीव्ड् ओन्ली थ्रू द मैण्ड् सो సో నాట్ త్రూ ద ఎక్స్టర్నల్ ఇయర్, నాట్ త్రూ ద బుద్ధి, ఓన్లీ త్రూ ద మనస్. ఏతద్వయం వాక్ బ్రహ్మయోగినాం సమాధౌ నిర్వికల్పక సవికల్పక జ్ఞాన విషయ ఇత్యుచ్యతే. సో యూ కెన్ ఈదర్ సే వాక్ బ్రహ్మయోగినాం or yeah, so shabda brahma yoginam, so those yogis who are established in the brahma, which is the shabda swarupam parabrahma, tannishthanam yoginam samadhau, so samadhi sthitau, samadhi is the final stage of perception when the atman becomes one with the brahma. Okay, so tasmin sthitau samadhau nirvikalpaka savikalpaka jnana vishayah. So samadhi is again of different kinds, so the details are in the yoga shastra. So jnana is also of two kinds, the jnana which you have during samadhi, nirvikalpaka and savikalpaka. So these are again terms of tarka. So they say jnana, nirvikalpaka jnana, which is just the knowledge of something devoid of any kind of attribute. Okay, you see something and you just perceive it as something. Okay, the existence of something without any attributes is called nirvikalpaka jnana, whereas savikalpaka jnana is with some attributes. So you identify it, say it is a, whether it is a man or whether it is a tree, sthanurva purushova ityadi. So any kind of identification of any attribute at all is called savikalpaka. So all jnana that we have is actually savikalpaka. Okay, so nirvikalpaka jnana is in the samadhi, where devoid of any other attributes you get the knowledge of Brahman. Okay, so etadvayam nama para and pashyanti, para vak nirvikalpaka jnana vishayah. So when you reach the highest form of samadhi, in the nirvikalpaka jnana the vishaya is the para vak, which is as good as the shabda brahma or the para brahma. Whereas a bit lower samadhi is called the savikalpaka samadhi, where you have the knowledge of something with the attributes, and in that case you can experience the pashyanti vak. Etadvayam vak brahma yoginam samadhau nirvikalpaka savikalpaka jnana vishayah ityuchyate. So that is para, the lowest or the most sukshma, and then you have the pashyanti, next is the madhyama. తతః హృదయ పర్యంతం ఆగచ్చత తేన వాయునా. సో వెన్ ద ఎయిర్ మూవ్స్ అప్వర్డ్స్ టువర్డ్స్ ద హృదయ, సో ఇనిషియలీ స్టార్టింగ్ ఫ్రమ్ ద మూలాధార, దెన్ ఇన్ ద నాభి, అండ్ దెన్ మూవింగ్ టు ద హృదయ. తతః హృదయ పర్యంతం ఆగచ్చత తేన వాయునా అభివ్యక్త తత్తదర్థవాచక స్ఫోట రూప. సో హియర్ వీ హ్యావ్ ద స్ఫోట. So this, the third vak, which is the madhyama vak, it is the actually the sphota, it denotes sphota. Tattarathavachaka sphota rupa shrotra grahana ayogyatvena sukshma, and this vak is also sukshma, that is shrotra grahana ayogya, you cannot perceive it through the ears, it is not the external sound, it is an internal vak. Okay, so vak is not always that we hear. Okay, so we are not talking about the speech or the external sounds at all. So these are the internal vak. Okay, so probably there is no way to translate it exactly to English. So tataha hridaya paryantam agachhata tena vayuna abhivyakta tattad arthavachaka sphota roopa. So that is in the form of sphota, which actually conveys the meaning. So arthavachakaha sphotaha shrotra grahana ayogyatvena sukshma, and this is also sukshma in the sense that it cannot be perceived by the external ears. Tarhi katham nyayate japadau buddhi nirgrahya. So this is possible even for others, that is not the yogis who have to go into the samadhi. So japadau, in case of japa etc., బుద్ధి నిర్గ్రాహ్య బుద్ధ్యా గృహ్యతే నతు శ్రోత్రేణ. సో దిస్ స్ఫోట కెన్ బి ఎక్స్పీరియన్స్ నాట్ త్రూ ద ఇయర్స్ బట్ త్రూ ద ఇంటలెక్ట్. బుద్ధి నిర్గ్రాహ్య మధ్యమా వాగుచ్యతే తతః దెన్ హ్యావింగ్ క్రాస్డ్ ఆల్ ద త్రీ స్టేజెస్ ఆస్య పర్యంతం ఆగచ్చత తేన వాయునా. సో వెన్ ద వాయు, ద ఎయిర్ కమ్స్ టు టిల్ ద మౌత్ ఆస్య పర్యంతం ఆగచ్చత తేన వాయునా ఊర్ధ్వమాక్రామత అండ్ ఇట్ స్టిల్ కంటిన్యూస్ మూవింగ్ అప్వర్డ్స్ మూర్ధానం ఆహత్య పరావృత్య సో ఇట్ హిట్స్ ద స్కల్ అండ్ దెన్ కమ్స్ బ్యాక్ మూర్ధానం ఆహత్య పరావృత్య పరావృత్య తత్తత్ స్థానేషు అభివ్యక్త సో ఇట్ హిట్స్ ద స్కల్ కమ్స్ బ్యాక్ అండ్ దెన్ దోస్ వర్ణాస్ ఆర్ ఎక్స్ప్రెస్డ్ త్రూ ద పర్టిక్యులర్ స్థానాస్ ద స్థాన హియర్ ఇస్ రెఫర్స్ టు ద ఉత్పత్తి స్థాన ఆఫ్ ద లెటర్స్ విచ్ ఇస్ ద కంఠ ద మూర్ధ ద తాలు ఎట్సెట్రా సో దట్ ఇస్ హౌ వి సే దట్ ద వర్ణోత్పత్తి హ్యాపన్స్ దట్ ఇస్ ద ఎయిర్ విచ్ ఇస్ రైజింగ్ అప్ ఇట్ హిట్స్ ద స్కల్ అండ్ దెన్ కమ్స్ బ్యాక్ అండ్ దెన్ through the those that particular places those letters are expressed okay ataha so going back tataha asya paryantam agachata tena vayuna urdhvam utkramata cha murdhanam ahatya పరావృత్య చ తత్తత్స్థానేషు అభివ్యక్త పరశ్రోత్రేణాపి గ్రాహ్య వైఖరీవా గుచ్యతే నౌ దిస్ ఇస్ వాట్ వి నార్మలీ రెఫర్ టు అ స్పీచ్ ఆర్ వర్డ్స్ బట్ దిస్ ఇస్ ద మోస్ట్ స్థూల ఫార్మ్ ఆఫ్ ద వాక్ ద వైఖరి పరశ్రోత్రేణ అపి గ్రాహ్య సో వెన్ ఇట్ ఇస్ ఎక్స్ప్రెస్ త్రూ దోస్ పర్టిక్యులర్ స్థానస్ దెన్ ఇట్ బికమ్స్ పర్సెప్టిబుల్ త్రూ ద అదర్ ఇయర్స్ okay one's own ears or the other's ears so this is the only vak which is shrotra grahya the normal sounds that we hear is the vaikhari vak but that is not the only kind of vak and that might be anitya those sounds are expressed and then they are you know not there and all that but the actual vak lies within okay so tadaha para vang moola chakrastha pashyanti నాభి సంస్థిత హృదిస్థా మధ్యమాజ్ఞేయ వైఖరీ కంఠదేశగా ఇతి వైఖర్యాహి కృతోనాద పరశ్రవణ గోచర మధ్యమయా కృతోనాద స్ఫోట వ్యంజక ఉచ్యతే సో దీస్ టు ఆర్ ఫ్రమ్ ద వాక్యపడీయా సో పరావాక్ మూలచక్రస్థ మూలాధార చక్రే పరానామ్ని వాక్ విద్యతే పశ్యంతి నాభి సంస్థిత సో ద సెకండ్ కైండ్ పశ్యంతి is situated in the nabhi hridistha madhyama gneya the madhyama vak is in the hridaya vaikhari kantha deshaga and coming out from the kantha the actual sounds that we hear are all vaikhari vaikharyahi krito nadaha parashravana gocharaha so the nada or the sounds which we generate from the vaikhari are heard by the others but the actual carrier of meaning the actual thing which expresses meaning is not vaikhari it is the previous stage which is the madhyama madhyamaya krito nadaha sphota vyanjaka uchyate so it is the madhyama sound which expresses sphota that is a meaningful word shabda and not vaikhari iti cha uchyate okay so we have the four kinds of words of which para and pashyanti can be perceived only by yogins during their samadhi the madhyama vak is the one which expresses sphota that is not perceptible through the ears it is sukshma and can be known through the intellect buddhi nirgrahya during japa etc the ultimate sounds that we hear are the vaikhari vak but it is not the vaikhari which actually expresses the meaning but madhyama okay so paravang moola chakrastha pashyanti nabhi samsthita hridistha madhyama gneya vaikhari kantha deshaga vaikharyahi krito nadaha parashravana gocharaha madhyamaya krito nadaha sphota vyanjaka uchyate yugapadeva madhyama vaikhari bhyam nadaha utpadyate so there is no time delay you have madhyama and then you have vaikhari coming out together తత్ర మధ్యమానాద అర్థవాచక స్ఫోటాత్మక శబ్ద వ్యంజక సో ద మధ్యమానాద ఎక్స్ప్రెసెస్ ద స్ఫోట విచ్ ఇన్ టర్న్ ఎక్స్ప్రెసెస్ ద మీనింగ్ సో మధ్యమానాద ಅರ್ಥವಾಚಕಸ್ಯ ಸ್ಫೋಟಾತ್ಮಕಸ್ಯ ಶಬ್ದಸ್ಯ ವ್ಯಂಜಕ. ನೌ ಸ್ಫೋಟ ಇಸ್ ನಾಟ್ ಹರ್ಡ್, ಓಕೆ, ದಟ್ ಇಸ್ ವೈ ಇಟ್ ಇಸ್ ನಾಟ್ ವಾಚ್ಯ, ಇಟ್ ಇಸ್ ಅ ವ್ಯಂಗ್ಯಾರ್ಥ, ದಟ್ ಇಸ್ ವಿಚ್ ಇಸ್ ಇಂಪ್ಲೈಡ್, ಓಕೆ, ಬೈ ದ ಮಧ್ಯಮಾನಾದ, ಅಂಡ್ ಇಟ್ ಇಸ್ ದಿಸ್ ಸ್ಫೋಟ ವಿಚ್ ಇಸ್ ಅರ್ಥವಾಚಕ ವಿಚ್ ಎಕ್ಸ್ಪ್ರೆಸಸ್ ದ ಮೀನಿಂಗ್. ವೈಖರೀನಾದೋ ಧ್ವನಿ, ಸೊ ದ ಸೌಂಡ್ ಆಫ್ ದ ವೈಖರಿ, ದ ವೈಖರೀನಾದ ಇಸ್ ಆಲ್ಸೋ ಕಾಲ್ಡ್ ಧ್ವನಿ ವಿಚ್ ಇಸ್ ಅ ಸೌಂಡ್. ಸಕಲ ಜನ ಶ್ರೋತ್ರ ಮಾತ್ರ ಗ್ರಾಹ್ಯ, ಅಂಡ್ ಇಟ್ ಕ್ಯಾನ್ ಬಿ ಪರ್ಸೀವ್ಡ್ ಓನ್ಲಿ ಥ್ರೂ ದ ಶ್ರೋತ್ರೇಂದ್ರಿಯ, ಬಟ್ ಆಫ್ ಎವ್ರಿಬಡಿ ಇಟ್ ಕ್ಯಾನ್ ಬಿ ಹರ್ಡ್ ಥ್ರೂ ಎವ್ರಿಬಡೀಸ್ ಇಯರ್ಸ್. ಭೇರ್ಯಾರಿ ನಾದವತ್ ನಿರರ್ಥಕ, ಬಟ್ ದ ವೈಖರೀನಾದ ಡಸ್ ನಾಟ್ ಹ್ಯಾವ್ ಎನಿ ಮೀನಿಂಗ್, ಇಟ್ ಇಸ್ ಜಸ್ಟ್ ಅ ಸೌಂಡ್. ಭೇರ್ಯಾದಿ ನಾದವತ್, ವೆನ್ ಯು ಹಿಟ್ ಅ ಭೇರಿ, ದಟ್ ಇಸ್ ಅ ಡ್ರಮ್ ಆರ್ ಎನಿ ಇನ್ಸ್ಟ್ರೂಮೆಂಟ್, ಯು ಗೆಟ್ ದ ಸೌಂಡ್, ಬಟ್ ದಟ್ ಸೌಂಡ್ ಡಸ್ ನಾಟ್ ಕ್ಯಾರಿ ಎನಿ ಮೀನಿಂಗ್. ಸಿಮಿಲರ್ಲಿ ದ ಎಕ್ಸ್ಟರ್ನಲಿ ಪರ್ಸೆಪ್ಟಿಬಲ್ ಸೌಂಡ್ ಡಸ್ ನಾಟ್ ಹ್ಯಾವ್ ಎನಿ ಮೀನಿಂಗ್. ವೈಖರೀನಾದ ಧ್ವನಿ ಸಕಲ ಜನ ಶ್ರೋತ್ರ ಮಾತ್ರ ಗ್ರಾಹ್ಯ, ಭೇರ್ಯಾದಿ ನಾದವತ್ ನಿರರ್ಥಕ. ಮಧ್ಯಮಾನಾದಶ್ಚ ಸೂಕ್ಷ್ಮತರ, ದ ಮಧ್ಯಮ ಇಸ್ ಸೂಕ್ಷ್ಮ, ಓಕೆ, ಇಟ್ ಇಸ್ ನಾಟ್ ಆಸ್ ಪರ್ಸೆಪ್ಟಿಬಲ್, ಆಸ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಪರ್ಸೆಪ್ಟಿಬಲ್ ಲೈಕ್ ದ ವೈಖರಿ. ಕರ್ಣಪಿಧಾನೇ ಜಪಾದೌ ಚ ಸೂಕ್ಷ್ಮತರ ವಾಯುವ್ಯಂಗ್ಯ, ಸೊ ಇಟ್ ಇಸ್ ಪ್ರೊಡ್ಯೂಸ್ ಥ್ರೂ ಅ ವೆರಿ ಸಟಲ್ ವಾಯು. ಕರ್ಣಪಿಧಾನೇ ಜಪಾದೌ ಚ ಶಬ್ದ ಬ್ರಹ್ಮ ರೂಪ ಸ್ಫೋಟ ವ್ಯಂಜಕಶ್ಚ, ಅಂಡ್ ಇಟ್ ಎಕ್ಸ್ಪ್ರೆಸಸ್ ದ ಸ್ಫೋಟ ವಿಚ್ ಇಸ್ ನಥಿಂಗ್ ಬಟ್ ದ ಶಬ್ದ ಬ್ರಹ್ಮ. ತಾದೃಶ ಮಧ್ಯಮಾನಾದ ವ್ಯಂಗ್ಯ ಶಬ್ದ ಸ್ಫೋಟಾತ್ಮಕ ಬ್ರಹ್ಮರೂಪ ನಿತ್ಯಶ್ಚ, ಅಂಡ್ ದಿಸ್ ಸ್ಫೋಟ ಇಸ್ ವಾಟ್ ಮಧ್ಯಮಾನಾದ ವ್ಯಂಗ್ಯ ಶಬ್ದ, ಸೊ ಇಟ್ ಇಸ್ ಅ ಶಬ್ದ ವಿಚ್ ಇಸ್ ಎಕ್ಸ್ಪ್ರೆಸ್ ಥ್ರೂ ದ ಮಧ್ಯಮಾನಾದ, ಇಟ್ ಇಸ್ ಬ್ರಹ್ಮರೂಪ ಅಂಡ್ ಇಟ್ ಇಸ್ ನಿತ್ಯ. ಓಕೆ, ಸೊ ಶಬ್ದ ನಿತ್ಯ ಇತ್ಯುಕ್ತೆ ಕಿಂ ಅಸ್ಮಾಭಿಃ ಶ್ರೂಯಮಾಣಃ ಅಥವಾ ಉಚ್ಚಾರ್ಯಮಾಣಃ ಶಬ್ದಃ ನಿತ್ಯಃ ಇತ್ಯರ್ಥಃ ನ. ಬ್ರಹ್ಮಸ್ವರೂಪಃ ಸ್ಫೋಟಾತ್ಮಕಃ ಶಬ್ದಃ ನಿತ್ಯಃ ಇತಿ ವೈಯಾಕರಣಾನಾಂ ಸಿದ್ಧಾಂತಃ. ತದಾಹ ಹರಿಃ, ಅತಏವ ಭರ್ತೃಹರಿಃ ವಾಕ್ಯಪರಿಯೇ ವದತಿ, ಅನಾದಿ ನಿಧನಂ ಬ್ರಹ್ಮ ಶಬ್ದತತ್ವಜ್ಞರಕ್ಷರಂ ವಿವರ್ತತೆ ಅರ್ಥಭಾವೇನ ಪ್ರಕ್ರಿಯಾ ಜಗತೋ ಯತಃ ಇತಿ. ಸೊ ದಿಸ್ ಇಸ್ ದ ಫಸ್ಟ್ ಶ್ಲೋಕ ಆಫ್ ದ ವಾಕ್ಯಪರೀಯ. ಸೊ ದ ವಾಕ್ಯಪರೀಯ ಇಸ್ ದ ಪ್ರಿನ್ಸಿಪಲ್ ಟೆಕ್ಸ್ಟ್ ವಿಚ್ ಲೇಡ್ ದ ಫೌಂಡೇಶನ್ಸ್ ಫಾರ್ ಡೆವಲಪ್ಮೆಂಟ್ ಆಫ್ ವ್ಯಾಕರಣ ಆಸ್ ಅ ಫಿಲಾಸಫಿ, ಓಕೆ, ರಾದರ್ ದನ್ ಜಸ್ಟ್ ದ ಬೀಯಿಂಗ್ ದ ವೇದಾಂಗ ಆರ್ ಅನಲೈಸಿಂಗ್ ವರ್ಡ್ಸ್. ಇಟ್ ಇಸ್ ದ ವಾಕ್ಯಪರೀಯ ವಿಚ್ ಲೇಸ್ ದ ಕಂಪ್ಲೀಟ್ ಫೌಂಡೇಶನ್ ಫಾರ್ ಎವ್ರಿಥಿಂಗ್, ಫಾರ್ ಸ್ಫೋಟ ಅಂಡ್ ಶಬ್ದ ಬ್ರಹ್ಮ ಅಂಡ್ ಆಲ್ ಸಚ್ ಫಿಲಾಸಾಫಿಕಲ್ ಆಸ್ಪೆಕ್ಟ್ಸ್ ಆಫ್ ವ್ಯಾಕರಣ. So, even though the major practical aspects of Vyakarana come from the Mahabhashya, the philosophical aspects, they are found in the Bhashya. So, as he quoted something from the Bhashya then, there are indications of it, but there is no explicit discussion of this in the Mahabhashya. So, it is Bhartrihari who first, I mean, we don't know if there were texts before Bhartrihari which spoke of this. The earliest available text for us, which speaks of sphota, which defines sphota and shabda brahma, is the Vakyapadiya. Okay? And he makes that very clear right from the first shloka, because the first shloka itself he says is this. Anadi nidhanam brahma. Brahma nama param brahma. Anadi nidhanam. Adihi adyanta rahitam. Ityarthaha. Adirapi nasti, antyamapi nasti. Shabda tattvam. And it is actually the Brahma is Shabda Tattva. The ultimate truth of Shabdas is that Brahma. Yat Aksharam. And that which does not change in any way. Vivartate Arthabhavena. Kintu Yataha Yasmat Shabda Tattvat. Jagataha Prakriya Arthabhavena Vivartate. So the everything which happens in the world is a Vivarta. Arthabhavena, there is two forms, the Namarupe Jagat, one is the Shabda and the Artha. So he says it is the Shabda Brahma itself, which is expressed as the Artha, Vivartate. So the Vivartavada is the standard thing of the Vedantins, right? So there are different kinds of Vadas among the philosophy. So there is the Utpastivada, I mean, that is Arambhavada, which means it was created. Or there is Parinamavada, so it is a modification or a transformation. There is the Vivartavada. What is Vivartavada? Atatrikaha Anyathabhavaha Vivartaha. Anyatha bhavaha, it is something which appears as something else, but that transformation is atatrika, not real. So something appearing as something else, but actually it is, there is no parivartana, there is no actual modification, that is vivarta. For example, you have piece of gold, and then you see some finely made kundalas. So they appear different, but they are actually the same. It is a anyatha bhavaha atatvikaha. Whereas parinama is something which has actually changed. Say kshiram, milk becoming curds. Okay, so that is parinama. It changes. So it is, there is a real change, but if the change is not real, atatvikaha anyatha bhavaha vivartaha. So that is the siddhanta of the Vedantins also. They say the Parabrahma, all beings, the whole world is derived from the Brahma through vivarta. That is, it is Brahma itself that we see. Even though we perceive it as something different, it is actually the same. Vivartavada. And we also, I mean, the Vaiyakaranas also accept the same Vivartavada. We say the Parabrahma is nothing but the Shabda Tattva. So, that Shabda is modified into all Arthavada. I mean, there is Vivarta, as Vivarta. Arthabhavena Vivartate, ityarthaha. Anadi Nidhanam Brahma, Shabda Tattvam Yadaksharam, Vivartate Arthabhavena Prakriya Jagato Yataha. Ayameva Sphotaha. So, this Shabda Brahma is what we also call Sphota. Okay. So the question is, the Vakyapadiya an independent text or was it completely based on the Mahabhashyam? It was an independent text. It is not a commentary or anything. Many of his things are based on the Bhashya, of course, and there. It is not totally disconnected from the Bhashya. Everything that he says regarding the words themselves and you know, the different actual grammatical concepts, such as the Vakya or the Karakas, the Nipatas, everything. I mean, the actual grammatical aspects are all derived from the Bhashya. He does not directly comment on it, but the Vakyapadiya is all Karikas. So, he expresses them in the form of Shlokas. So, it is an independent text based on the Mahabhashya. But the part about this, especially the first thing, which is the Brahmakanda, and the part about Sphota, it seems to be a development at least. I mean, there might have been slight bijas in the Mahabhashya, but the development is definitely Bhartrahari's. Okay? I mean, it's a very good, I mean, it's a text which has huge contributions to furthering of Vyakarana, both as a philosophy and as a, you know, the grammar itself. Okay? One of the path-breaking works in Vyakarana is definitely Vakyapadiya. Okay, so we will stop here. There is some more to Sphota, but this is the idea. So, what the thing is, we are talking at different levels basically. The Tarkikas, they are looking only at the hearable sounds. When they say Varanaha, Nityaha, Utpadyante, Nashyanti, or Uccharita Pratidhvamsi, they are talking only about the sounds, okay, the sounds which are heard. We are saying that that is not all that is to sound. Sound is much more vyapaka than that. So, para, pashyanti, madhyama, vaikari, all these are nadas, in which the para, pashyanti are only for the yogins in samadhi. It is the madhyama nada which is called sphota and which is the actual artha bodhaka, and that is nitya. Okay? So, that is not uccharita pradvamsi, it is nitya and therefore pratyaksha. It is also pratyaksha. All the objections that he mentioned earlier for the Tarkikas will be countered by this. Okay? And you say, I am Purvaha, I am Paraha. So obviously when it is Nitya, it is Pratyaksha, you can have the Purva, Para, etc. And it is, all other objections are answered by accepting the theory of Sphota. Okay? So he goes on explaining a bit more about Sphota. But we will stop here for today. Any questions? Yes, Paul.
Yeah. So, seems like the essence of the discussion today would be that our actual speech is coming from Brahma, which is originating from the Muladhara chakra.
Yes.
Okay.
Yeah. That is the best one.
And it simultaneously comes through the vocal cords?
Yeah, the Madhyama and Vaikariya. The Madhyama, when it comes to the Hridaya, so there the expression of the Madhyama Nada and the expression of the Vaikari Nada, which is the external speech, is simultaneous. Whereas Parapashyanti is not perceptible by us at all, so he doesn't talk about those.
Okay. But that's perceptible by the yogis.
Yeah, in samadhi, at the final stages, not even during, it's not during the sadhana, it is only in samadhi.
In nirvikalpa samadhi, or near...
Yeah, para in nirvikalpaka and pashyanti in the savikalpaka samadhi.
Yeah, nirvikalpa, okay. All right, thank you.
Yeah.
Very
good. Okay. So, shabdasya swarupam kim iti vishaye asmabhi vicharyate. So, varanaha pratyekam vachakaha. Nama, bahihi shrutaha, varanaha eva shabdaha, te eva vachakaha. So, there is nothing other than what is actually heard. Iti mate. Varanaha pratyekam vachakaha iti ched, dvitiyadi varana vayyarthyapattihi. Prathama varane naiva yadi arthabodaha bhavati, tarhi dvitiya varanasya apeksha eva nasti. Iti varana sanghataha vachakaha iti ched. Ekam tu uccharita pradhvamsitvena yoga padya asambhavaha. Ekaha utpannaha nashtaha, dvitiyaha utpannaha nashtaha ityevam chet. Varanasya sanghataha eva na bhavati. Samakalikatva abhavat. Tatha cha apratyakshaha. Kshanasthayitvat. Kshanatmakaha kalaha na pratyakshaha. Kincha ayam purvaha ayam paraha ityadi vyavaharasya anubhapattihi. Iti bhavati. Anityaha shabdaha iti tarkikamate te tredha samadhanam vadanti. Uttarottara varane purva purva varanavatvam avyavahita uttaratva sambandhena grihyate iti ekam samadhanam. Kintu nashta vidyamanayoho ayam sambandhaha vaktum ashakyaha. Yadi dvayoho vidyamanatvam asti tarhi ayam purva varanaha ayam uttara varanaha ityadi vyavaharaha. Kintu ekaha nashtaha aparaha vidyamanaha. Sopi nashtaha punaha aparaha vidyamanaha iti chet, sambandhaha vaktum na shakyate iti nageshasya uttaram. Shabdaja shabdanyayena charamavarana uccharana paryantam purva purva varana jaha shabdaha bhavanti tena pratyakshatvam sambhavati iti chet, pratyakshatva sambhave api avidyamanasya parasya ashrayatvam na sambhavati. Yatha avidyamanasya ghatasya jalashrayatvam na yujyate, evam avidyamanasya padasya shaktyashrayatvam na yujyate. Asmanmate tu nityaha, sarvada bhavati ityataha shaktyashrayaha sphotaha iti yujyate. Purva-purva varana anubhavajanya samskara sadhrichina charamavarana anubhavataha. Purva-purva varananam anubhavena kaschit samskaraha jayate. Tena sahitasya antima varanasya anubhavat shabda bodhaha bhavati iti chet. Samskarasya kramarahitatvat. Akrame udbodhaha bhavati chet samskarasya. Anyartha pratyayapatti. Yatra sama varanaha samanaha. Yatha nadidina iti athava saraha rasaha iti. Tatra anyartha pratyayasya apatti. Ataha trinyapi samadhanani na yujyante. Tarhi kim asmanmate iti chet. Chaturvidha vag asti, para, pashyanti, madhyama, vaikari, seti. Tatra, para, vag, muladhara chakre, pashyanti, nadhau, nabhyam, bhavati. Samadhau, jnana vishayaha. Shabda brahma vedinaha, ye yoginaha. Tesham, nirvikalpaka samadhehe, jnana vishayaha, bhavati, para, vag. Savikalpaka samadhehe, jnana vishayaha, bhavati, pashyanti, vag. Madhyama, hridaye, sthita, sukshma, arthat, shrotra, apratyaksha. It cannot be heard through the ears. Sphota vyandika. And it is the madhyama which expresses the sphota form of the shabda. Whereas vaikari is the external sound, parashravana gochara, kintu nirarthaka. It does not carry any meaning. Just like the sound of a bheri. Drums or anything. So this external sound does not carry any meaning. It just helps to set flame to the madhyama. So he comes later. If vaikari does not have any meaning, so how do we understand something when you speak? We understand by hearing that external sound, right? So katham bhavati iti agre vakshyati. So shabdaha sphotatmakaha brahmarupaha nityaha. So the actual shabda, when we talk of shabda, it is nitya. It is the sphota that we are talking about, not the vaikari dhvani. And it is brahmaswarupa. So it is the parabrahma. All the attributes of brahma. So the eka, akhanda, nirguna, etc. apply to shabda brahma also. Okay. So ekaha akhandascha. So etadapi agre pratipadyate. So katham tarhi shabda bheda pratitihi bhinnanam shabdanam pratitihi katham ityadi agrima varge pashyamaha. Shivannatva hinageshe nanindya paramalaghu vayyakarana siddhanta manju shaisha virachyate. Dhanyavadah.